अथ अष्टमस्कन्ध
अथ त्रयोदशोऽध्यायः श्री शुक उवाच मनुर्विवस्वतः पुत्र श्राद्ध देवैति श्रुतः सप्तमो वर्तमानो यस्तदपत्यानि मेषण इक्ष्वाकुर्नभगश्चैव धृष्टः सर्जातिरेव च नरिष्यन्तोऽथ नाभागः सप्तमो दिष्ट उच्यते कर्षश्च प्रसर्धश्च दशमो वसुमान् स्मृतः मनुर्वैवस्वतस्येते दशपुत्राः परम् तप आदित्या वसवो रुद्रा विश्वे देवा मरुद्गणः अश्विना ऋभवो राजन् इन्द्रस्तेषाम् पुरन्दरः कश्यपोत्तिर्वसिष्ठश्च विश्वामित्रोऽथ गौतमः जमदग्निर्भरद्वाज इति सप्तर्षयः स्मृतः अत्रापि भगवज्जन्म कश्यपादधितेरभूत् आदित्यानामवर्जो विष्णुर्वामनरूपधृक् संक्षेपतोमयुक्तानि सप्तमन्वन्तराणि ते भविष्याणथ वक्ष्यामि विष्णुः शक्त्यान्वितानि च विवस्वतश्च द्विजाये विश्वकर्मसुते उभे संज्ञाच्छाया च राजेन्द्र ये प्रागभीते तव तृतीयायाम् बलवामेके तासाम् संज्ञासुतास्त्रयः यमो यमी श्राद्धदेवच्छायाश्च सुतांशृणु सावर्णिस्तपति कन्या भार्या संवर्णस्य या शनैश्चरस्तृतीयोभूत् अश्विनौ वडवात्मजौ अष्टमेऽन्तर आयाते सावर्णीर्भविता मनुः निर्मोकविरजस्काद्या सावर्णी तनया नृप तत्र देवासुतपसो विरजा अमृतप्रभा तेषाम् विरोचनसुतो बलिरिन्द्रो भविष्यति दत्त्वेमाम् याचमानाय विष्णवे यः पदत्रयम् राधमिन्द्रपदम् हित्वा ततः सिद्धिमवाप्स्यति योऽसौ भगवता बद्ध प्रीतेन सुतले पुनः निवेशितोऽधिके स्वर्गाद् अधुनास्ते स्वराडिव गालवो दीप्तिमान् रामो द्रोणपुत्रः कृपस्तथा ऋषशृङ्गः पितास्माकम् भगवान् बादरायणः इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगतः इदानीम् आसते राजन् स्व आश्रममण्डले देवगुह्या सरस्वत्याम् सार्वभौम इति प्रभु स्थानम् पुरन्दराधृत्वा बलये दास्यतीश्वरः नवमो दक्षसावर्णिर्मनुर्वरुणसम्भवः भूतकेतुर्दीप्तकेतुरित्याद्यास्तत्सुता नृप पारामरीचिगर्भाद्या देवा इन्द्रोद्भूतः स्मृतः द्युतिमत्प्रमुखास्तत्र भविष्यन्ति ऋषयस्ततः आयुष्मतोऽम्बुधारायाम् ऋषभो भगवत्कला भविता जेन संराधाम् त्रिलोकीम् भोक्षते भूतः दशमो ब्रह्म सावर्णी उपश्लोकसुतो महान् तत्सुता भूरिषेणाद्या हविष्मत् प्रमुखा द्विजः हविष्मान् सुकृते सत्यो जयो मूर्तिस्तदा द्विजः सुवासन विरुद्धाद्या देवा शम्भु सुरेश्वरः विश्वक्सेनो विशुच्यम् तु शम्भो सख्यम् करिष्यति जातः स्वांशेन भगवान् गृहे विश्वसृजो विभु मनुर्वै धर्मसावर्णिरेकादशम आत्मवान् अनागतास्तत्सुताश्च सत्धर्मादयो दश विहङ्गमः कामगमा निर्वाणरुचयः सुराः इन्द्रश्च वैधितस्तेषाम् ऋषयश्चारुणादयः आर्जकस्य सुतस्तत्र धर्मसेतु इति स्मृतः वैधितायाम् हरेरंशस्त्रिलोकीम् धारयिष्यति भविता रुद्रसावर्णी राजन् द्वादशमो मनुः देववानुपदेवश्च देवश्रेष्ठादयः सुतः ऋद्धामा च तत्रेन्द्रो देवाश्च हरितादयः ऋषयश्च तपोमूर्ति तपस्वी अग्निध्रकादयः स्वधामाख्यो हरिरंश साधयिष्यति तन्मनः अन्तरम् सत्यसहसूनृताया सुतो विभु मनुस्त्रयोदशो भाव्यो देवसावर्णिरात्मवान् चित्रस्येन विचित्राद्या देवसावर्णि देहजा देवाः सुकर्म सुत्राम संज्ञा इन्द्रो दिवस्पतिः निर्मोकस्तत्त्वदर्शाद्या भविष्यन्ति ऋषयस्तदा देवहोत्रस्य तनय उपहर्ता दिवस्पतेः योगेश्वरो हरिरंशो बृहत्याम् सम्भविष्यति मनुर्वा इन्द्रसावर्णि चतुर्दशमयिष्यति गुरुगम्भीरबुद्ध्याद्या इन्द्रसावर्णि विरजजा पवित्राश्चाक्षुषा देवा शुचिरिन्द्रो भविष्यति अग्निर्बाहु शुचिशुद्धो मागधाद्यास्तपस्विनः सत्रायणस्य तनयो बृहद्भानुस्तदा हरिः वितानायाम महाराज क्रियातंतुन वितायिता राजन चतुर्दशायतानि त्रिकालानुगतानि ते प्रोक्तान एभिर्मितः कल्पो युगसहस्रपर्ययः। इति श्रीमद्भागवते महापुराणे परमहंस्याम संहितायाम् अष्टमस्कन्धे मन्वन्तरानुवर्णनम् नाम त्रयोदशोऽध्यायः।